ओम नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। श्रीवादरायणिरुवाच, वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् मोहयित्वा सुरगणान् हरिः सोमम् अपाययत्। वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः, सह देव्या ययौ द्रष्टुम् यत्रास्ते मधुसूदनः। सभाजितो भगवता सादरं सोमयाभवः। सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम्। श्रीमहादेव उवाच, देवदेव जगद्व्यापिन् जगदीश जगन्मय, सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः। आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः, यतो व्ययस्य नैतानि तत्सत्यं ब्रह्मचिद्भवान्। तवैव चरणां भोजं श्रेयस्कामानिराशिषः, विसृज्यो भयतः सङ्गं मुनयः समुपासते। त्वं ब्रह्मपूर्णममृतं विगुणं विशोकमानन्दमात्रमविकारमनन्यतन्यत्। विश्वस्य हेतुहृदयस्थितिसंयमानामात्मेश्वरश्च तदपेक्षतयानपेक्षः। एकस्त्वमेव सदसद्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेदः। अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्मात् गुणैर्व्यतिकरो निरुपाधिकस्य। त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके एके परं सदसतो पुरुषं परेशम्। अन्ये वयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रम्। नाहं परायुर्ऋषयो न मरीचि मुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः। यन्मायया मुषितचेतस ईष दैत्यमर्त्यादयः किमुत शश्वतभद्रवृत्ताः। सत्त्वं समीहितमतस्थितिजन्मनाशं भूते हितं च जगतो भवबन्धमोक्षौ। वायुर्यथा विशतिखं च चराचराख्यं सर्वं तदात्मकतयावगमो वरुंसे। अवतारा मया दृष्टा रममाणस्य ते गुणैः, सोऽहं तद्द्रष्टुमिच्छामि यत्ते योषिद्वपुर्धृतम्। येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः, तद्दृक्षवायाताः परं कौतूहलं हिनः। श्रीशुक उवाच, एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत। श्रीभगवानुवाच, कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः, पश्यता सुरकार्याणि गते पीयूषभाजने। तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम, कामिनां बहुमन्तव्यं सङ्कल्पप्रभवोदयम्। श्रीशुक उवाच, इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत, सर्वतश्चारयंश्चक्षुर्भवास्ते सहोमया। ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे, विक्रीडतीं कन्दुकलीलया लसद्दुकूलपर्यस्तनितम्बमेखलाम्। आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे, प्रभज्यमानामिव मध्यतश्चलत्पदप्रवालं नयतीं ततस्ततः। दिक्षुभ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम्। स्वकर्णविभ्राजितकुण्डलोल्लसत्कपोलनीलालकमण्डिताननाम्। स्वथद्दुकूलं कबरीं च विच्युतां संहयतीं वामकरेण वल्गुना, विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया। तां वीक्ष्य देवैति कन्दुकलीलयेषत् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः। स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मानात्मानमन्ति कौमां स्वगणांश्च वेद। तस्याः कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनुव्रजत् स्त्रियाः। वासः ससूत्रं लघुमारुतो हरद्भवस्य देवस्य किलानुपश्यतः। एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमां दृष्ट्वा तस्यां मनश्चक्रे विसज्जन्त्यां भवः किल। तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः, भवान्या अपि पश्यन्त्या गतर्रीस्तत्पदं ययौ। सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशं, निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत। तामन्वगच्छत् भगवान् भवः प्रमुषितेन्द्रियः, कामस्य च वशं नीतः करेणुमिव यूथपः। सोऽनुव्रज्यातिवेगेन गृहीत्वा निच्छतीं स्त्रियं, केशबन्ध उपानीय बाहुभ्यां परिषस्वजे। सोपगूढा भगवता करिणा करिणी यथा, इतस्ततः प्रसर्पन्ति विप्रकीर्णशिरोरुहा। आत्मानं मोचयित्वाङ्गसुरर्षभुजान्तरात् प्राद्रवत्सा पृथुश्रोणी मायादेव विनिर्मिता। तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः, प्रत्यपद्यतकामेन वैरिणेव विनिर्जितः। तस्यानुधावतोरेतश्च स्कन्दामोघरेतसः, सुष्मिणो योऽथपस्येव वासितामनुधावतः यत्र यत्रापतन्महीयाम् रेतस्तस्य महात्मनः तानि रूप्यस्य हेम्नश्च क्षेत्राणि आसन् महीपते सरित्सरस्सु शैलेषु वनेषूपवनेषु च यत्र क्वचासन् ऋषयस्तत्र सन्निहितो हरः स्कन्ने रेतसि सोपस्यदात्मानम् देवमायया जडीकृतम् नृपश्रेष्ठ सन्न्यवर्तत कस्मलात् अथावगतमाहात्म्य आत्मनो जगदात्मनः अपरिज्ञेयवीर्यस्य न मेने तदुहाद्भुतम् तमविक्लवमव्रीडमालक्ष्य मधुसूदनः उवाच परमप्रीतो बिभ्रत्स्वाम् पौरुषीम् तनुम् श्रीभगवानुवाच दिष्ट्या त्वम् विबुधः श्रेष्ठ स्वाम् निष्ठामात्मना स्थितः यन्मे स्त्रीरूपया स्वैरम् मोहितोऽप्यङ्गमायया को नु मेति तरेन्मायाम् विषक्तस्त्वदृते पुमान् तान्स्तान् विसृजतीम् भावान् दुस्तरामकृतात्मभिः सेयम् गुणमयी माया न त्वामभिभविष्यति मया समेता कालेन कालरूपेण भागशः श्रीशुक उवाच एवम् भगवता राजन् श्रीवत्साङ्केन सत्कृतः आमन्त्र्यतम् परिक्रम्य सगणस्वालयम् ययौ आत्मांशभूताम् ताम् मायाम् भवानीम् भगवान् भवः संसतामृषिमुख्यानाम् प्रीत्या दष्टाथ भारत अपि व्यपश्यस्त्वमजस्य मायाम् परस्य पुंसः परदेवतायाः अहम् कलानाम् ऋषभो विमुह्ये यया वशोऽन्ये किमुता स्वतन्त्राः यम् मामपृच्छस्त्वमुपेत्य योगात् समासहस्रान्तौ पारतम् वै स एष साक्षात् पुरुषः पुराणो न यत्र कालो विशते न वेदः श्रीशुक उवाच इति ते विहितस्तात् विक्रमशार्ङ्गधन्वनः सिन्धोर्निर्मथनेयेन धृतः पृष्ठे महाचलः एतन्मुहुः कीर्तयतो नृशृण्वतो नरिष्यते जातु समुद्यमः क्वचित् यदुत्तमश्लोकगुणानुवर्णनम् समस्तसंसारपरिश्रमापहम् असदविषयमङ्घ्रिम् भावगम्यम् प्रपन्ना नमृतममरवर्या नाशयत् सिन्धुमथ्यम् कपटयुवतिवेषो मोहयन्यः सुरारीन् स्तमहमुपसृतानाम् कामपूरम् नतोऽस्मि ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामष्टमस्कन्धे शङ्करमोहनम् नाम द्वादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।